सर्वेभ्यो नमः। अत्र गीतासोपानस्य वर्गः आरम्भं कर्तुं शक्नुमः। गीताञ्जलि भगिनी नमस्कारः।
नमस्कारः महोदय, नमस्कारः, क्षम्यतां महोदय, विलम्बेन आगतवती।
अस्तु, चिन्ता मास्तु भगिनी। हा अस्तु, गतवर्गे वयं भविष्यत्कालरूपस्य लकारस्य अभ्यासं कृतवन्तः। एका कथा आसीत्, तस्य पठनानन्तरं तत्र अभ्यासमपि कृतवन्तः। तदा किं किं भविष्यति इति आञ्जनेयस्य चिन्तनं तत्र किञ्चित् अहं चिन्तयामि। तत्र पेज् 117 मध्ये प्रथम अभ्यासः कृतवन्तः वयम्। अभ्यासं तत्तु कृतं, द्वितीय अभ्यासः अपि, तृतीय अभ्यासः तदेव गृहपाठः इति आसीत्। तद् कृत्वा अग्रे गच्छामः। तदनन्तरं अहं वयं पञ्चमी विभक्ति इति विषयम् आरब्धुं शक्नुमः इति मन्ये। अस्तु, तत्र नरेश महोदय द्वितीय अभ्यासः आरम्भं करोति वा?
आम् महोदय। अधोरेखाङ्कितं शब्दं पदीकृत्य एतेषाम् उत्तरवाक्यानां प्रश्ननिर्माणं कुरुत। आञ्जनेयः अशोकवने सीतां पश्यति। प्रश्नः अस्ति, आञ्जनेयः अशोकवने का पश्यति?
का अथवा कां पश्यति? समीचीनं महोदय, समीचीनं। हा समीचीनं, तत्र काम् इति विभक्ति का?
द्वितीयविभक्ति।
समीचीनं, हा समीचीनम्। अन्ये नूतनतया कः आगतवान् अथवा आगतवती?
अहम् अरुणा रामलु।
अरुणा रामलु भगिनि नमस्कारः। भवती अद्य वक्तुम् इच्छति वा अत्र?
अहं प्रथमवर्गम् अपि आगच्छामि।
प्रथमवारं? सत्यं सत्यं भगिनि। अस्तु, शृणोतु, तत्र वयं कुत्र स्मः इत्युक्ते पेज् 117 इति गीतासोपान पुस्तकं, तत्र पेज् 117। अस्तु भगिनि, प्रश्नः अस्ति चेत् पृच्छतु। अस्तु,
आं महोदय।
अस्तु अस्तु अस्तु, गीताञ्जलि भगिनी अग्रे अग्रिमं करोति वा? द्वितीयाभ्यासः।
आं महोदय। वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्षतः। वार्तां श्रुत्वा सः तौ ते तं तौ कं कौ कौ च प्राणान् त्यक्षतः।
प्राणान् त्यक्षतः, समीचीनं भगिनि। हा अस्तु, अग्रे भानुचेतनी महोदय।
महोदय, तत्र चकारः आवश्यकं किम्?
कुत्र
प्रश्ने? वार्तां श्रुत्वा कौ प्राणान् त्यक्षतः?
तत्र किम् आवश्यकं?
कौ च प्राणान् त्यक्षतः?
कौ
तत्र कौ च प्राणान् त्यक्षतः इति तत् समीचीनमस्ति महोदय। किमर्थम् इत्युक्ते तत्र सन्दर्भः कः? पूर्वमपि किमपि वार्ता अस्ति, कोऽपि प्राणान् त्यक्षति इति, तदनन्तरम् अन्ये कोऽपि अपि प्राणान् त्यक्षतः वा इति इदानीं प्रश्नः। यदि चकारः नास्ति चेत् तत्र अस्तु, कः प्राणान् त्यक्षति इति अस्ति, किन्तु च अस्ति चेत् अस्तु, एतादृशं पूर्वमपि अभवत्, किमपि प्रश्नः पूर्वमपि आसीत्, इदानीं नूतनप्रश्नः, अन्य कोऽपि कोऽपि अस्ति वा कः अपि प्राणान् त्यक्ष्यति इति?
महोदय, अन्यरीते वार्ता श्रुत्वा कः कः च प्राणान् त्यक्षतः?
हा, तदपि समीचीनं महोदय। अतः भानुचेतनी महोदय, यद् भवान् उक्तवान् तत् समीचीनमेव अस्ति, एतदपि समीचीनम् अस्ति, यत् नरेश महोदय उक्तवान् तदपि समीचीनम् अस्ति
महोदय, परन्तु तत्र कः कः च प्राणान् त्यक्षति त्यक्षतः
तत्र त्यक्षति त्यक्षति एव त्यक्षति सत्यं सत्यं तत्र विषयः आसीत् प्रश्नवाचकशब्दः किं भवितुम् अर्हति अपि चकारः भवति न वा इति खलु हा किन्तु कः कः अस्ति चेत् त्यक्षति एव सत्यम्
अपि च महोदय कः कः त्यक्षन्ति
के के त्यक्षन्ति
अस्तु धन्यवादः महोदय
हा के के त्यक्षन्ति अथवा कः कः त्यक्षति
अस्तु महोदय वानराः मुष्टिभिः मस्तकान् ताडयिष्यन्ति वानराः केन मस्तकान् ताडयिष्यन्ति
केन केन हा तत्र वयं न जानीमः उत्तरम् एकवचने भवति वा द्विवचने भवति वा अतः सत्यं महोदय केन इति प्रश्नवाचकः समीचीनमेव अस्तु अग्रे गीताञ्जलि भगिनि
वानराः तत् क्रीडा
ततः
वानराः ततः क्रीडा सुखं न अनुभविष्यन्ति वानराः ततः कं
अथवा किं
तत् एतानि कं तत् इति नपुंसकलिङ्गं किं किं न अनुभविष्यन्ति
किं न अनुभविष्यन्ति समीचीनं भगिनि हा अस्तु नरेश महोदय
अञ्जनेयः सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान् आञ्जनेयः केषु भवनेषु सीतायाः अन्वेषणं कृतवान्
अथवा केषु अथवा अन्यप्रश्नः कुत्रापि भवितुमर्हति वा
कुत्र सीतायाः अन्वेषणं कृतवान्
इति खलु तदपि वक्तुं प्रश्नवाचकं भवितुम् अर्हति तत्र अस्तु तत्र रेखाङ्कितशब्दं तदेव उपयुज्य प्रश्ननिर्माणं करणीयमस्ति इति कृत्वा केवलम् एकः एव प्रश्नः अस्ति नो चेत् अनेकाः प्रश्नाः तत्र भवन्ति खलु कस्य अन्वेषणं कृतवान् कुत्र कृतवान् प्रथम उत्तरे कः सीतां पश्यति कुत्र पश्यति इति अनेकाः प्रश्नाः सन्ति किन्तु केवलं यत् रेखाङ्कितम् अस्ति तदेव उपयुज्य प्रश्ननिर्माणं करणीयम् इति कृत्वा तावदेव अस्ति हा रघुपतिमहोदय नमस्कारः
नमस्कारः महोदय
नमस्कारः
क्षम्यतां किञ्चित् विलम्बेन
चिन्ता मास्तु महोदय चिन्ता मास्तु तत्र पेज् 117 तत्र द्वितीय अभ्यासः कृतवन्तः इदानीम् अग्रे तृतीय अभ्यासः अस्तु तत्र बनचदिनी महोदय तृतीय अभ्यासः आरम्भं करोति वा
एतेषां वाक्यानां भविष्यत्कालक्रियापदानां स्थाने वर्तमानकालरूपाणि लिखत प्रथमबिन्दु यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि तर्हि कः पुरुषार्थः साधितः भविष्यति यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गच्छामि तर्हि कः पुरुषार्थः साधितः भवति
समीचीनं महोदय भवति समीचीनं हा अस्तु रघुपतिमहोदय अग्रे वदति वा
सुग्रीवः तदा मां किं वा भविष्यति किं वा वदिष्यति इति अस्ति. सुग्रीवः तदा मां किं वा वदति
इति भवति. समीचीनं महोदय, वर्तमानकालरूपं. गीताञ्जलि भगिनी अग्रे.
यदि अहं तथा वदिष्यामि तर्हि रामः प्राणान् त्यक्षति. यदि अहं तथा वदति तर्हि वदामि तर्हि राम प्राणान् त्यक्षति.
त्यक्षति इति भविष्यत्कालरूपं वा त्यजति. समीचीनं. अस्तु अग्रे नरेश महोदय.
तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्स्यति. तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्नोति.
प्राप्नोति. समीचीनम्. अग्रिमपुटे बनचेतनि महोदय.
महोदय, केपि वानराः ततः क्रीडासुखं न अनुभविष्यन्ति. केपि वानराः ततः क्रीडासुखं न अनुभवन्ति.
अनुभवन्ति. समीचीनं महोदय. अस्तु रघुपतिमहोदय अग्रे.
तदा वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति, प्राणत्यागं च करिष्यन्ति. तदा वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयति, प्राणत्यागं च करोति अथवा कारयति. करोति
किन्तु वानराः इति अस्ति महोदय.
वानराः
बहुवचने अस्ति.
बहुवचने अस्ति. ताडयन्ति, प्राणत्यागं च कुर्वन्ति.
कुर्वन्ति. समीचीनं महोदय. नरेश महोदय अग्रे.
वानराः शिलाग्रेभ्यः अधः पतिष्यन्ति, विषं वा पास्यन्ति, उपवासव्रतं वा आचरिष्यन्ति. वानराः शिलाग्रेभ्यः अधः पतन्ति, विषं वा पिबन्ति, उपवास व्रतं वा आचरन्ति.
समीचीनं महोदय. गीताञ्जलि भगिनि.
अहं सुग्रीवं
द्रष्टुं
न शक्ष्यामि. अत्रैव वानप्रस्थव्रतं ग्रहीष्यामि. अहं सुग्रीवं द्रष्टुं न शक्नोमि. अत्रैव वानप्रस्थव्रतं गृह्णामि.
गृह्णामि. समीचीनं भगिनि. समीचीनं. अस्तु अग्रे रघुपति महोदय.
ततः चितां प्रवेक्ष्यामि, अत्रैव जीविष्यामि, नैव प्रतिगमिष्यामि. ततः चितां प्रवेशामि वा एकनिमिषं विशिष्टत्वम् अस्ति. विशामि प्रविशामि अत्रैव जीवामि. जीवदातु जीवामि नैव गम दातु गच्छामि. अस्तु नैव प्रतिगच्छामि.
नैव प्रतिगच्छामि. समीचीनं महोदय. अस्तु समीचीनम्. अस्तु तृतीय अभ्यासः अपि तदपि समाप्तः इदानीम्. अस्तु गीताञ्जलि भगिनी अग्रिमम्.
एतेषु वर्तमानकाल भूतकाल भविष्यत्काल क्रियापदरूपाणि पृथक् लिखत.
अस्तु तत्र आगतवान् इति किमस्ति?
आगतवान् इति भूतकाल वर्तमानकाल
न न न केवलं तत्र केवलं पृथक् करणीयमस्ति.
अस्तु महोदय.
अतः आगतवान् इति भूतकालरूपम् अस्ति. गमिष्यामि इति
गमिष्यामि इति वर्तमानकाल.
गमिष्यामि
सोरि भविष्यत्काल.
भविष्यत्कालम् अस्तु. वक्ष्यामि
वक्ष्यामि अपि च भविष्यत्काल.
भविष्यत्कालं समीचीनं भगिनि. अस्तु बानचेतनी महोदय अग्रे तत्र विनङ्क्ष्यतः वर्तमानकाल वा भूतकालरूपं वा भविष्यत्कालरूपं वा?
भविष्यत्काल द्विवचन प्रथमपुरुष द्विवचन महोदय.
समीचीनं महोदय. अस्तु अग्रे
इत्युक्ते महोदय
विनश्यति विनश्यतः इति नश्यति विनश्यति विनश्यतः. तस्मिन्नेव स्तम्भे महोदय अधोभागे पश्यामि अपि
पश्यामि एकवचन उत्तमपुरुष महोदय. पश्यामि
वर्तमान
वर्तमानकालरूप.
वर्तमानकाल अस्तु अस्तु महोदय.
शक्ष्यामि 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 तु भविष्यत्कालरूपं तदपि उत्तमं पुरुषे एकवचनम्.
एकवचनं समीचीनं महोदय. अस्तु अग्रे नरेश महोदय.
आं महोदय दृष्टवान् भूतकाल रूपम् अस्ति पुल्लिङ्ग. कृतवान्
एकवचने
एकवचनं कृतवान् अपि भूतकाल पुल्लिङ्ग एकवचने. ग्रहीष्यति भविष्यत्काल एकवचनं भविष्यत्काल.
तत्र पुरुषः कः प्रथम
पुरुषः.
अस्तु तत्र दृष्टवान् तत्र कः पुरुषः तत्र
दृष्टवान् प्रथम पुरुष प्रथमपि उत्तम पुरुष मध्यम पुरुष अपि
किमर्थं किमर्थम्
एतत्तु विशेषणम् अस्ति.
एतत् नामपदम् अस्ति विशेषणम् अस्ति क्रियापदं नास्ति अत्र तत्र अतः पुरुषः नास्ति. अहं दृष्टवान् सः दृष्टवान् त्वमपि दृष्टवान् इति वक्तुं शक्नुमः. समीचीनं महोदय समीचीनं. अस्तु अग्रे रघुपति महोदय.
इदानीं
करोमि इति स्तम्भं
करोमि इति अस्तु करोमि लिट्लकार वर्तमानकाल अस्ति उत्तमपुरुषे एकवचन. जीविष्यामि अपि लिट्लकार वर्तमानकाल सोरि भविष्यत्काल एकवचन उत्तमपुरुष जीविष्यामि. भवति इति भूधातु अस्ति भवति उत प्रथमपुरुष एकवचन वर्तमानकाल.
वर्तमानकाल समीचीनं महोदय. अन्ये कोऽपि आगतवान् आगतवती वा नूतनतया? सूर्यकुमारी भगिनी नमस्कारः. अहं चिन्तितवान् यदि भवती आगच्छति न वा इति. भवती एव अग्रे करोति वा तत्र तत्र केवलं पेज् 118 मध्ये स्मः. तत्र वदिष्यामि मरिष्यामि चिन्तयामि अपि गच्छामि इति तत्र वर्तमानकालरूपं वा किं?
वदिष्यामि उत्तम उत्तमपुरुष एकवचन भविष्यत्काल
भविष्यत्कालः.
चिन्तयामि उत्तमपुरुष एकवचन लट्लकार. गमिष्यामि
गच्छामि गच्छामि अस्ति अपि मरिष्यामि मरिष्यामि अपि गच्छामि तावदेव.
गच्छामि उत्तमपुरुष एकवचन वर्तमानकाल.
मरिष्यामि इति अस्ति
मरिष्यामि उत्तमपुरुष एकवचन भविष्यत्काल
भविष्यत्काल समीचीनं भगिनि. अस्तु अस्तु अग्रे तत्र कः भवती एव अग्रिमम् अपि आरम्भं करोति वा पञ्चम पञ्चमाभ्यासः तत्र पाठे विद्यमानानि इति
पाठे विद्यमानानि वाक्यानि परिशील्य अत्र रिक्तस्थानानि पूरयत. आञ्जनेय कृत्वा लङ्काम् आगतवान्. सीतायाम् अन्वेषणं कृत्वा
किं कृत्वा तत्र आञ्जनेयः कुत्र आसीत्? भारतदेशे आसीत्. लङ्काम् आगतवान्. किं कृत्वा आगतवान्? प्रथमवाक्यम् अस्ति कथायाम्
अन्वेषणार्थं.
न तस्य
सीतायाम् अन्वेषणं
कृतवान्.
न अन्वेषणार्थम् आञ्जनेयः किं कृत्वा कृष्णवर्णे प्रथमवाक्यं तत्र आवर्णे अस्ति वाक्यं सीतायाः अन्वेषणार्थम् इति आरभ्य प्रथमवाक्यं
कदा
कथायां प्रथम रक्तवर्णे न कृष्णवर्णे रक्तवर्णं त्यजतु. तत्र कृष्णवर्णे किम् अस्ति? सीतायाः अन्वेषणार्थम्
आञ्जनेयः समुद्रलङ्कां किं कृत्वा लङ्काम्
आगतवान्.
क्षम्यतां
महोदय. चिन्ता मास्तु भगिनि, चिन्ता मास्तु. तत्र गतवर्गे वयं कथां पठितवन्तः खलु, अतः सर्वाणि वाक्यानि मनसि न स्मर्तुं शक्नुमः. चिन्ता मास्तु. भानुचित्री महोदय अग्रिमम्
इदानीं
चिन्ता मास्तु भगिनि.
यदि अहं तथा वदिष्यामि तर्हि रामः
प्राणान् त्यक्षति. समीचीनं. अस्तु, नरेश महोदय अग्रे.
तां श्रुत्वा भवतः शत्रुघ्नः च प्राणान् त्यक्षतः. तां वार्तां श्रुत्वा
समीचीनं महोदय. अस्तु, गीताञ्जलि भगिनी अग्रे.
तत्पश्चात् अङ्गदः मरणं प्राप्स्यति. तत्पश्चात्
कीदृश अङ्गदः?
पूर्वमपि आसीत् एतद् वाक्यं पेज् 117 अन्तिमवाक्यं पश्यतु.
तत्पश्चात् कुमारः अङ्गदः.
कुमारः अङ्गदः विशेषणं विशेषणम् अस्ति. रघुपतिमहोदय.
आं महोदय, अहं दृष्टवान् ते अधः पतिष्यन्ति वा पास्यन्ति. अस्तु, के वनराः? एकनिमिषम्.
तत्र अस्मिन्नेव पुटे उपरि पश्यतु महोदय, सप्तम बिन्दु.
अस्तु अस्तु, शिल अस्तु. कुतः? अस्तु, ते शिलाग्रेभ्यः अध पतिष्यन्ति विषं वा पास्यन्ति
इति इति एव अस्ति. समीचीनम्. अस्तु, एतत् एतादृशम् अभ्यासं कुर्मश्चेत् किञ्चित् स्मरणं भवति खलु कथायाः. पूर्णकथा न मनसि स्थापयितुं शक्नुमः, किन्तु एतद् वाक्यम् इदानीम् ओ कुमारः अङ्गदः अपि विषं पास्यन्ति अथवा शिलाग्रेभ्यः इति, तद् मनसि स्थापितः भवति खलु. अस्तु,
किं किं विस्मृन्तः इति दर्शयति.
हा, दर्शयति, दर्शयति. सत्यं भगिनि, सत्यं भगिनि, सत्यं सत्यं. हा,
पाठानन्तरम् अग्रिमकक्षायाम् एव पुस्तकस्य उद्घाटनं कुर्वन् अस्मि.
किन्तु भवान् जानति खलु, तदेव सः एव नियमः अस्ति. भवान् केवलं नियमं पालयति, नियमः तदेव अस्ति वर्गस्य मध्ये. मा पश्यतु इति
दोषः अस्ति, किञ्चित् अभ्यासं करणीयम्, अस्माकं लाभः एव.
सत्यं सत्यं महोदय. हा, किन्तु वयं सर्वं तदेव कुर्मः खलु. अस्तु, अस्तु, अग्रे गच्छामः. इदानीं तत्र भविष्यत्कालस्य किञ्चित् अभ्यासः गतवर्गे अपि अस्मिन् वर्गे कृतवन्तः. इदानीम् अग्रे पञ्चमी विभक्ति इति भवति. तत्र प्रायशः केवलं पञ्चमी विभक्ति अनन्तरं केवलं किम् अस्ति चतुर्थी विभक्ति अपि तृतीया विभक्ति तद् वयं न कृतवन्तः. यदि तद् कुर्मः, हा, तस्य पूर्वमेव अहं तत्र सर्वदा ईमेल् द्वारा प्रेषयामि एतद् स्वरूपमहोदयस्य विभक्ति कोष्टकं पश्यतु इति. किन्तु कदापि वयं न कुर्मः, प्रायशः अग्रिमवर्गे कुर्मः. तस्य देवशब्दः इति किञ्चित् कण्ठस्थीकरणम्. अस्तु, इदानीं पञ्चमविभक्ति तत्र. हा, बाणचैतन्य महोदय आरम्भं करोति वा तत्र.
गाण्डीवं स्रंसते हस्तात् पठत अवगच्छत च, पञ्चमी विभक्तिः. अर्जुनः रथात् अवतरति. गोपिकाः नद्याः जलम् आनयन्ति. कृष्णः मथुरायाः आगच्छति. पाण्डवाः राजभवनात् गच्छन्ति.
हा, इति. अस्तु, हा, समीचीनं महोदय. तत्र अर्जुनः रथात् अवतरति. रथात् इति कीदृशरूपं महोदय?
रथः, रथः इति प्रथमा, रथात् इति पञ्चमी एकवचनम्.
एकवचनम् अस्ति, समीचीनं महोदय. हा, रथात् इत्युक्ते
मथुरा
रथः अस्ति. हा, रथः अस्ति तस्मात्. यत्र तत्र खण्डः भवति, देशखण्डः इत्युक्ते एकभागः अस्ति अन्यत् भागः, तादृश अर्थः वयं वक्तुम् इच्छामः. गृहम् अस्ति, गृहात् कुत्रापि गच्छामः, तत्र खण्डः भवति. गृहम् एकः खण्डः, अन्यः खण्डः अस्ति. एकात् खण्डात् अन्यात् खण्डं गच्छामः इति, तत्र रथात् इति. अत्र अपि पाण्डवाः राजभवनात्, तत्र राजभवनात् इति अस्ति. प्रथमविभक्तिरूपं किम् अस्ति?
राजभवनम्.
अतः नपुंसकलिङ्गपदम् अस्ति. तत्र अपि थात् रथात् अपि राजभवनात् समानम् अस्ति. अत्र गोपिकाः नद्याः जलम् आनयन्ति, तत्र अर्थः कः?
नदी तु स्त्रीलिङ्ग,
स्त्रीलिङ्गं
महोदय, पञ्चमी एकवचनम्.
इत्युक्ते किं नद्याः जलम् आनयन्ति इति, कोऽपि वदति वा?
नद्याः जलं, नद्याः जलम्
तस्मात् जलम् आनयन्ति, नद्याः जलम् आनयन्ति.
नदी, नद्याः इति बहुवचनम् अस्ति प्रथमपुरुष इति महोदय.
नद्याः जलम् आनयन्ति इत्युक्ते नदी अस्ति,
नद्या
तत्र
महोदय.
तस्मात् इति अर्थः अस्ति, किन्तु तत्र किमपि कोऽपि क्लेशः अस्ति वा तत्र, किन्तु अथवा एकः एव अर्थः अस्ति वा तस्मिन् वाक्ये? षष्ठी अपि भवितुम् अर्हति खलु. नद्याः नद्याः जलम् आनयन्ति इति तदपि वक्तुं शक्नुमः तत्र.
आनयन्ति क्रियापदं
सत्यं भगिनि. तत्र अहम् 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 अन्यत्
आगच्छति तुल्य.
भगिनि एतद् अन्यत् उदाहरणं पश्यामः. तत्र भवती अस्ति, तत्र भवत्याः इत्युक्ते किं भवति? भवत्याः पुस्तकं
पञ्चमी
अथवा षष्टि. अतः केवलं वाक्यं पश्यामश्चेत्, केवलं भवत्याः इति पदं पश्यामश्चेत् अर्थः अवगन्तुं शक्नुमः वा? तत्र वाक्यं द्रष्टव्यम् अस्ति. अत्र वाक्यं पश्यामः, पठामः, किन्तु अत्र अर्थद्वयमपि भवितुम् अर्हति वा अथवा एकमेव एकः एव अर्थः अत्र अस्ति? केवलं पञ्चमी इति चिन्तयितुं शक्नुमः वा, अथवा पञ्चमी अपि समीचीनं, षष्टि अपि समीचीनं, किन्तु या पुस्तकस्य आशयः अस्ति पञ्चमी इति, तत्तु अहम् अङ्गीकरोमि, किन्तु षष्टि अपि भवितुम् अर्हति खलु, तदपि समीचीनमेव अत्र.
अस्तु महोदय.
तत्र नद्याः
महोदय आनयति क्रिया
अस्ति सत्यं. अहं भवत्याः पुस्तकम् आनयामि, तत्र किं भवति? सामान्य अर्थः अस्ति, ओ भवत्याः पुस्तकम् अस्ति, तत् पुस्तकम् अहम् आनयामि. जलम् आनयामि, तत्र कस्मात् जलम् आनयन्ति इति प्रश्ने सति गोपिकाः नद्याः जलम् आनयन्ति. तत्र वयं
यदि महोदय यदि अत्र वाक्य जलम् इति पदं नास्ति चेत् तदनन्तरं गोपिकाः नद्याः आनयन्ति, नद्याः केवलं पञ्चमी समीचीनं, षष्ठी समीचीनं नास्ति.
सत्यं 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 तदपि अङ्गीकरोमि भगिनि, सत्यं. किन्तु यद् वाक्यमस्ति तत्र अर्थद्वयम् अर्थद्वयं भवति, अर्थद्वयमपि समीचीनमेव, किन्तु पञ्चमी विभक्ति इति लिखितमस्ति, अतः वयं चिन्तयामः अस्तु अत्र पञ्चमी विभक्ति. यदि तादृश नास्ति चेत्, सङ्केतः नास्ति चेत् तत्र मनसि किञ्चित् क्लेशः भवति, ओ एतत् पञ्चमी वा षष्ठी वा इति किञ्चित् चिन्तनं करणीयम् इति तावदेव. अस्तु. यथा गीताञ्जलि भगिनी यथा भवती उक्तवती, तत्र अन्यत् वाक्यं यदस्ति कृष्णः मथुरायाः आगच्छति, तत्र पञ्चमी एव खलु? समीचीनं न भवति, सत्यं भगिनि. अतः समीचीनम् अस्तु. अस्तु, इदानीं तत्र एकवारं तत्र पञ्चमीविभक्तिरूपं कीदृशम् इति पश्यामः. तत्र नरेश महोदय पठति वा?
आं महोदय. पञ्चमीविभक्तिः लोभः, लोभात् लोभाभ्यां लोभेभ्यः, आननम् आननात् आननाभ्याम् आननेभ्यः, जिह्वा जिह्वायाः जिह्वाभ्यां जिह्वाभ्यः, नदी नद्याः नदीभ्यां नदीभ्यः.
तत्र लोभः, आननं, जिह्वा, नदी कीदृशपदम् इति एकवारं वदतु महोदय. तत्र लोभः
लोभः पुल्लिङ्ग
वचनमस्ति आननम् नपुंसकलिङ्ग अकारान्त जिह्वा स्त्रीलिङ्ग आकारान्त नदी स्त्रीलिङ्ग ईकारान्त
स्त्रीलिङ्ग ईकारान्त समीचीनं महोदय समीचीनं
आननम् इत्युक्ते
आननं
मुख
गजानन सत्यं
माउथ नास्ति किन्तु फेस
हा सत्यं अस्तु अग्रे हा गीताञ्जलि भगिनी अग्रे पठतु तत्र
उच्चैः पठत जानीत च हिमगिरेः गङ्गाः प्रवहति
गङ्गा गङ्गा
ओ गङ्गा अस्तु स्त्रीलिङ्ग पदं हिमगिरेः गङ्गा प्रवहति
हा तत्र गिरेः इति अस्ति
गिरेः गिरि इकारान्त पुंलिङ्ग
शब्दः
पञ्चमी अपि च षष्ठी गिरेः किन्तु अत्र
पञ्चमी
एव
हिमगिरेः गङ्गा प्रवहति तत्र प्रायशः षष्ठी अपि भवितुमर्हति हिमगिरेः या गङ्गा हिमगिरेः अस्ति सा गङ्गा प्रवहति किन्तु किन्तु तादृश नास्ति नास्तु पञ्चमे एव अस्तु अग्रिमम्
अम्बा पाणिभ्यां कङ्कणानि निष्कासयति पाणिभ्याम् इति द्विवचन
पाणि इत्युक्ते
कर इत्युक्ते हस्त
गदपाणि
पाणिभ्याम् इत्युक्ते द्वयोः हस्तयोः
हस्तयोः कङ्कणं हस्तयोः कङ्कणम् अथवा
अम्बा पाणिभ्यां कङ्कणानि निष्कासयति
अस्तु समीचीनं भगिनि अस्तु रघुपतिमहोदय अग्रे
इक्षोः शर्करां निर्माति
तृतीया अपि अस्ति महोदय
अस्तु तृतीया अस्तु गिरिभ्यः अस्तु गिरिभ्यः नद्यः प्रवहन्ति गिरिभ्यः इति गिरिभ्यः इति
तत्र द्विवचने किम् अस्ति एकवारं वदतु महोदय
गिरिभ्यां नद्यः प्रवहन्ति
तत्र प्रथमम् आसीत् गिरेः गङ्गा प्रवहति इदानीं गिरिभ्यः नद्यः
प्रवहन्ति
अग्रे
इक्षोः शर्करां निर्माति इक्षुः इक्षोः
इक्षुः इति कीदृशपदम्
उकारान्त पुल्लिङ्ग अस्ति
पुल्लिङ्गपदं गुरुशब्दमस्ति इक्षोः शर्करां निर्माति समीचीनं महोदय अस्तु अग्रे सूर्यकुमारी भगिनी
महोदय रामः बाहुभ्याम् आभरणानि अपसारितवान् बाहुभ्यां द्विवचनं पञ्चमी विभक्ति आभरणानि
अपसारितवान् इत्युक्ते रिमूव्ड् इति तत्र बाहुभ्याम् इति अस्ति तत्र एकवचने किं भवति तत्र इक्षोः इति अस्ति खलु इक्षोः इति कीदृशपदम्
इक्षु उकारान्त
अत्र किम् अस्ति
इक्षोः
अत्र पदं किम् अस्ति
प्रथमपुरुषे
हा अत्र किम् अस्ति बहुभ्याम् इति अस्ति अतः एकवचने किं भवति न न तत्र अत्र इक्षोः इति प्रथमाविभक्ति एकवचनरूपं किम् अस्ति भगिनि इक्षोः प्रथमाविभक्ति एकवचनरूपं किम् अस्ति इक्षुः हा इदानीं बाहुभ्याम् इति तत्र प्रथमाविभक्ति एकवचनरूपं किम् अस्ति
बाहुः
हा इक्षुः इक्षोः भवति चेत् बाहुः किं भवति हा तदेव तावदेव बाहोः बाहुभ्यां
बाहुभ्यः
हा अग्रिम वाक्ये बाहुभ्यः इति अस्ति समीचीनम् अस्तु हा अस्तु भगिनि अग्रिमं पठतु तत्र हा
शिष्याः गुरुभ्यः पठन्ति
हा शिष्याः गुरुभ्यः पठन्ति समीचीनं हा गुरुभ्यः इति गुरुभ्यः द्विवचनरूपं किमस्ति
गुरुभ्यः बहुवचनं
हा द्विवचने
गुरुभ्योः नो नो गुरुभ्यां
गुरुभ्याम् एकवचने गुरोः हा गुरोः इति समीचीनं भगिनि अस्तु बालचेतनी महोदय अग्रे
भरतः भ्रातुः पादुके स्वीकृतवान्
हा
महोदय भ्रातुः भ्राता शब्दं भ्रातुः इति पञ्चमी एकवचनं
तत्र हा तत्र पादुके इति अस्ति कीदृशपदं पादुके
द्विवचनं महोदय
हा किमर्थं
पादुकः
पादुकः न
पादुका स्त्रीलिङ्गमपि प्रायः अस्ति एव पादुकम् अस्ति वा
पादुका एव
पादुका
एव
पादुका स्त्रीलिङ्गपदम् अस्ति हा तत्र विभक्ति का तत्र पादुके इति किन्तु स्वीकृतवान् इति अस्ति स्वीकृतवान् तत्र कर्मपदमस्ति वा स्वीकरोति इति क्रियापदं स्वीकृतवान् अथवा स्वीकरोति इति अस्ति चेत् कर्मपदं भवति वा
महोदय द्वितीयं वा
कर्मपदं कर्मपदम् अस्ति तत्र पादुके इति
आं महोदय
हा तत्र लता लते लताः हा लता लते लताः लतां
लते लते लताः
हा अतः लते इति अस्ति अतः पादुके इति अस्तु महोदय हा समीचीनम् अग्रे
सुपुत्रः मातापितृभ्याम् आशीर्वादं प्राप्नोति मातापितृभ्यां तत्
द्विवचनरूपे
पञ्चमी षष्टि
सत्यं 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 महोदय सत्यम् इदानीं तत्र भ्रातुः इति एकवचने अस्ति इदानीम् एतद् दृष्ट्वा भ्रातुः इति पदस्य पञ्चमी विभक्ति द्विवचनरूपं किं भवति महोदय हा भ्रातृभ्याम् इति समीचीनं महोदय भ्रातृभ्याम् अपि तत्र मातापितृभ्याम् आशीर्वादं प्राप्नोति केवलं माता अस्ति चेत् सुपुत्रः
मातुः
हा मातुः आशीर्वादं प्राप्नोति हा समीचीनं महोदय समीचीनं हा अस्तु अग्रे कः नरेश महोदय अग्रे
गायकः
श्रोतृभ्यां प्रशंसां प्राप्तवान्. श्रोतृभ्यां द्विवचनं पञ्चमी विभक्ति. प्रशंसां प्राप्तवान्.
एकवचने
एकवचने श्रोतुः
इति अस्ति. समीचीनं महोदय. अत्र द्विवचने अस्ति. समीचीनं महोदय.
दध्नः नवनीतं भवति.
हा, तत् किञ्चित् विशेषपदम् अस्ति महोदय. तत्र दधि इति अस्ति. पञ्चमी अस्ति दध्नः इति.
आम्, पञ्चमी दध्नः.
किञ्चित् विशेषम् अस्ति तत्र. विशेषपदम्
पुंलिङ्ग अस्ति चेत्
तत्र अहं न स्मरामि. दधि इति प्रायशः न स्मरामि.
हृस्व इकार महोदय.
हा, दधिः प्रायश पुल्लिङ्ग.
नपुंसकलिङ्ग अत्र महोदय.
हा, नपुंसकलिङ्ग अस्तु. हा, स तत्र एतद् नपुंसकलिङ्गशब्द अस्तु. सो तत्र एतत्तु दधिः इति प्रायशः तत्र गीतामाहात्म्यं श्लोके अपि आगच्छति इति मन्ये, खलु? तत्र कोऽपि स्मरति वा?
महोदय, अहं पश्यामि शब्दमञ्जरी इति अष्टविंशति पुटे पञ्चमी दध्नः.
सत्यं भगिनि. हा, सत्यं. हा, नपुंसकलिङ्गपदम् अस्तु. समीचीनं भगिनि. अस्तु, धन्यवादः. तत्र तत्र दधि इति कुत्रापि तत्र
प्रातिपदिकं दधि
दधि. हा, अस्तु अस्तु अस्तु. हा, अस्तु. हा, अग्रे कः? हा, सूर्यकुमारी भगिनि अग्रे.
माता मधुनः पिपीलिकां निवारयति. माता मधुनः.
हा, अस्तु अस्तु अस्तु. हा, क्षम्यतां. हा, पेज् 13 पश्यतु. तत्र दधि इति नपुंसकलिङ्गपदम् ईकारान्त इति वयं दृष्टवन्तः. अहमपि विस्मृतवान्. दधि इति तत्र मधु अपि वयं दृष्टवन्तः, खलु? मधु इति किम् अस्ति? कीदृशपदम् अस्ति? उकारान्त. अस्तु, मधु मधु मधूनि किमपि दृष्टवन्तः, खलु?
अस्तु, मधु
नपुंसकलिङ्ग
मधुनि मधूनि.
कस्मिन् पुटे महोदय?
199
मध्ये अस्ति. अस्तु, हा, अस्तु. हा, तत्र मधुनः इति पञ्चमीभक्ति एकवचनरूपम्. अस्तु, माता मधुनः पिपीलिकां निवारयति. हा, 199. हा, मधुनः उकारान्त
नपुंसकलिङ्गं चेत् नकारः भवति.
तादृशः प्रायशः. हा, तादृशः नास्ति भगिनि. हा, तत्र, हा, तत्र मनस् इति अस्ति. तत्तु नपुंसकलिङ्गपदम् अस्ति. तत्र तादृशः नास्ति भगिनि. वनमपि नपुंसकलिङ्गपदम् अस्ति. वनात् इति अस्ति. ग्रामात् पर्णात् इति. हा, अतः अथवा ग्रामतः अपि भवितुम् अर्हति तत्र पञ्चमीविभक्तिरूपम्. अतः नकारः नपुंसकलिङ्गे नकारः भवति इति नियमः नास्ति. हा, अस्तु, अग्रिमं वदतु भगिनि.
देवः दुर्गुण्याः
दुर्गत्याः
दुर्गत्याः अस्मान् रक्षति.
इत्युक्ते
दुर्गत्याः
तत्र अन्यत् रूपमस्ति प्रायशः दुर्गति मतिशब्दः अस्ति चेत् तत्र सर्वदा रूपद्वयमस्ति
दुर्गत्यां
न दुर्गत्यां सप्तमी भवति हा किन्तु दुर्गत्याः पञ्चमी अस्ति मतिः मति शब्दवत् किं किं स्त्रीलिङ्गे अस्ति नद्याः इति तत्र दुर्गत्याः इति भवति किन्तु हरिशब्दवत् अस्ति चेत् अथवा हा कविशब्दवत् अस्ति चेत् कवेः इति भवति अतः दुर्गतेः अपि तत्र वक्तुं शक्नुमः देवः दुर्गतेः अस्मान् रक्षति रक्षणं करोति दुर्गतिः न भवतु इति देवः दुर्गत्याः अस्मान् रक्षति अस्मान् इति विभक्ति का
अस्मान् अस्मान् द्वितीय उत्तमपुरुष बहुवचनं
हा तत्र उत्तमपुरुष इति न
अस्मान्
तत् क्रियापदं नास्ति अस्मान् इति अस्मान् इति द्वितीया विभक्ति बहुवचनरूपं बहुवचनरूपं कर्मपदं देवः कं रक्षति देवः अस्मान् रक्षति देवः कस्मात् अस्मान् रक्षति देवः दुर्गत्याः अस्मान् रक्षति इति हा अस्तु अग्रे रघुपतिमहोदय
हा महोदय काकस्य चञ्च्वाः अपूर्वम् अपूपं पतति चञ्चू इति अस्ति चञ्च्वाः चञ्च्वाः इति चञ्चू इति पुल्लिङ्ग अस्ति वा पुल्लिङ्ग चञ्चू चञ्च्वाः पुल्लिङ्ग अस्ति ओके अस्तु अस्तु हा धेनुवा ओके अस्तु चञ्च्वाः अपूपं पतति पञ्चमी विभक्ति एकवचन अस्ति
तत्र धेनुः अपि मतिशब्दवत् धेनुः ह्रस्वकारान्त किन्तु स्त्रीलिङ्गपदम् अस्ति खलु तत्र
आम् धेन्वाः अथवा धेनोः इति
अत्र तत्र चञ्च्वाः अपि चञ्च्वाः नो चेत्
एक एव अस्ति
चञ्चोः
चञ्चो नास्ति महोदय अत्र वधू इति अस्ति अत्र वधो वध्वाः एव अस्ति ऊकारान्त
चञ्चु हा अस्तु 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 महोदय सत्यं 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 दीर्घ उकारः
किन्तु अत्र ह्रस्व उकार चञ्चु अपि च अत्र स्पोकन् संस्कृत दत्तं महोदय महोदय द्वयोः
द्वयमपि दत्तमस्ति वा
चञ्चोः
अथवा चञ्च्वाः अस्तु अग्रिमं महोदय
जनाः धेनुभ्यः क्षीरं प्राप्नुवन्ति धेनुभ्यः इति धेनुः स्त्रीलिङ्गपदमस्ति धेनुभ्यः धेनुभ्यः बहुवचनम् अस्ति
तत्र धेनुभ्यः इति रूपम् एकवचने द्विवचने किम् अस्ति एकवारं दृष्ट्वा वदतु महोदय तत्र
एकनिमिषं महोदय
अधोभागे एव दत्तमस्ति कोष्टके
अस्तु अस्तु धेनवाः अथवा धेनोः धेनुभ्यां धेनुभ्यः
इदानीं चञ्च्वाः इति तस्य एकवचनद्विवचनरूपं
चञ्च्वाः चञ्च्वाः चञ्चोः चञ्चुभ्यां चञ्चुभ्यः
चञ्चुभ्यः इति समीचीनं महोदय. अस्तु अग्रे गीताञ्जलि भगिनि.
सः मातुः अनुग्रहं प्राप्नोति. मातुः पञ्चमी एकवचन मातृ
ऋकारान्तपदं स्त्रीलिङ्गपदं तत्र द्विवचने किम् अस्ति?
मातुः मातृभ्यां मातृभ्यः
हा इति समीचीनं भगिनि. अग्रे
अग्रे सर्वे मातृभ्यः आशीर्वादं प्राप्नुवन्ति. मातृभ्यः इति बहुवचनं पञ्चमी.
तत्र पिता अस्ति चेत् किं भवति भगिनि? पिता अहं जानामि पुल्लिङ्गे अस्ति किन्तु रूपं समानम् इति मन्ये, किं भवति?
पिता पितुः पितृभ्यां पितृभ्यः.
भ्राता अस्ति चेत्
भ्रातुः भ्रातृभ्यां भ्रातृभ्यः.
समीचीनं भगिनि. तत्र कर्ता इति अस्ति चेत् अधोभागे दत्तमस्ति, केवलम् एकवारं वदतु तत्र.
कर्ता कर्तुः कर्तृभ्यां कर्तृभ्यः.
कर्तृभ्यः इति. अस्तु भगिनि समीचीनं. अस्तु इदानीं तत्र दीर्घं कोष्टकम् अस्ति, सर्वं स्मरितुं प्रायशः न शक्नुमः, किन्तु किञ्चित् प्रयत्नं कुर्मः तत्र. तत्र किं कुर्मः अत्र? एतत् कुर्मः, तत्र अहम् एतद् दृष्ट्वा. अस्तु तत्र भानुचेतनी महोदय, तत्र अङ्गदः इति पदस्य पञ्चमीविभक्ति एकवचन द्विवचन बहुवचनरूपम् अङ्गदः.
अङ्गदात् अङ्गदाभ्याम् अङ्गदेभ्यः
अङ्गदेभ्यः. समीचीनं. नरेश् महोदय, आञ्जनेयः
किम्?
आञ्जनेयः
आञ्जनेयः आञ्जनेयात् आञ्जनेभ्याम् आञ्जनेभ्यः.
आञ्जनेयः इति
आञ्जनेय आञ्जनेय आञ्जनेयात् आञ्जनेयभ्याम् आञ्जनेयभ्यः
आञ्जनेयेभ्यः. अस्तु
महोदय. आञ्जनेयाभ्याम् इति अस्ति
आञ्जनेयाभ्याम् इति. सन्ध्या भगिनी नमस्कारः.
नमस्ते महोदय.
भवती शृणोति वा?
आम् अहं शृणोमि एव.
अस्तु भगिनि, तत्र वयं पञ्चमीविभक्ति कुर्म कुर्वन् स्मः, तत्र पेज् 119-120 तत्र स्मः. अस्तु भगिनि. अस्तु अत्र रा अस्तु तत्र गीताञ्जलि भगिनि, तत्र लक्ष्मणः
लक्ष्मणात् लक्ष्मणाभ्यां लक्ष्मणेभ्यः.
अस्तु रघुपतिमहोदय, भरतः
भरतः भरतात् भरताभ्यां भरतेभ्यः.
अस्तु सूर्यकुमारी भगिनी, तत्र शत्रुघ्नः
शत्रुघ्नात् शत्रुघ्नाभ्यां शत्रुघ्नेभ्यः
शत्रुघ्नेभ्यः. अस्तु अस्तु सन्ध्या भगिनी, यदि वक्तुम् इच्छति चेत् वदतु. केवलं तत्र केवलं
केवलं शृणोमि.
अस्तु अस्तु भगिनि, हा केवलम् एकवारं प्रष्टुम् इष्टवान् तावदेव. अस्तु हा अस्तु, अग्रे भानुचितन् महोदय, अग्रे तत्र किं कुर्मः? इदानीं कविः इति अस्ति, तत्र हरिः.
हरिः हरेः हरिभ्यां हरिभ्यः.
हा हरेः हरिभ्यां हरिभ्यः. अस्तु हा, तत्र अग्रे
हरिभ्यः अपि महोदय,
हरेः एव अस्ति खलु महोदय, हरेः एव
मतिः इति.
मतिः तु स्त्रीलिङ्गपदमस्ति महोदय, किन्तु हरिः तु तत्र हरिः तु केवलं हरेः एव अस्ति. हा तत्र हा हरिः इति केवलं तदेव अस्ति. हा अस्तु, अग्रे नरेश महोदय, मुनिः इति.
मुनिः मुनेः मुनिभ्यां मुनिभ्यः.
मुनिभ्यः इति अस्तु, मुनिभ्यः अस्तु, समीचीनं. हा गीताञ्जलि भगिनी, इदानीं सीता इति.
सीतायाः सीताभ्यां
सीताभ्यः सीताभ्यः. हा शाखा शाखा यदस्ति, हा शाखायाः शाखाभ्यां शाखाभ्यः सीता
सीता सीतायाः सीताभ्यां सीताभ्यः.
हा सीताभ्यः अस्तु, अग्रे तत्र हा रघुपतिमहोदय, लता इति.
लता लता लताया लता लतायाः लताभ्यां लताभ्यः.
हा लताभ्यः अस्तु. हा अग्रे सूर्यकुमारी भगिनी, माला इति.
माला मालायाः मालाभ्यां मालाभ्यः.
मालाभ्यः हा अस्तु, हा अस्तु. अग्रे भानुचेतनी महोदय, उमा इति.
उमायाः
न
उमायाः
हा, तत्र तृतीया विभक्तौ उमया इति अस्ति, किन्तु अत्र षष्ठी विभक्ति नदी नदी क्षम्यतां, हा लता इति लतायाः. हा
महोदय, उमायाः उमाभ्याम् उमाभ्यः.
हा समीचीनं महोदय. हा अस्तु नरेश महोदय, अग्रे तत्र इदानीं नदी इति अस्ति, तद् दृष्ट्वा देवी इति.
देवी देव्याः देवीभ्यां देवीभ्यः.
हा देवीभ्यः अस्तु समीचीनं. हा तत्र गीताञ्जलि भगिनि, तत्र सुन्दरी इति.
सुन्दर्याः सुन्दरीभ्यां सुन्दरीभ्यः.
हा समीचीनम् अस्तु. हा तत्र ईकारान्त अन्यत् किं. हा तत्र रघुपतिमहोदय, तत्र पितुः इति पिता इति.
अस्तु पितुः पितृभ्यां पितृभ्यः.
हा पितुः पितृभ्यां पितृभ्यः इति समीचीनं. हा समीचीनम्. इदानीं तत्र नपुंसकलिङ्गे किमस्ति इति तत्र हा सूर्यकुमारी भगिनी, तत्र वनम् अस्ति चेत् तत्र स्यन्दनम् इति अस्ति, तद् दृष्ट्वा वदतु. स्यन्दनम् इति अस्ति तत्र कोष्टके.
वनात्
वनाभ्यां वनेभ्यः इति. हा समीचीनं. हा अस्तु भानुचितनी महोदय, ग्रामम् इति.
ग्रामात् ग्रामाभ्यां ग्रामेभ्यः.
हा इति अस्ति. हा इदानीं केवलम् एकवारं तत्र वारी अपि मधु इति विशेषपदमस्ति, तद् एकवारं वदामः. नरेश महोदय, वारि इति किम् अस्ति रूपम्?
वारिनः, वारिभ्यां, वारिभ्यः.
अपि अग्रिमं मधु इति?
मधु, मधुनः, मधुभ्यां, मधुभ्यः.
हा, तत्र केवलम् एकवचने विशेषरूपम् अस्ति, द्विवचने बहुवचने हा साधारणरूपमेव अस्ति खलु. तत्र कवि, कवि इति पदम् अस्ति, तत्र कविः कविभ्यः, अत्र वारि इति वारिभ्यः, कवि इति कविभ्यां, वारिभ्यां. किन्तु तत्र कवेः इति अस्ति, अत्र वारिणः इति अस्ति. तत्र वयं हा तत्र विशेषरूपम् अस्ति वारि इति, अपि मधु अपि मधुनः इति. तत्र गुरुशब्दवत् द्विवचने अपि बहुवचने अस्ति, गुरुभ्यां गुरुभ्यः, तत्र मधुभ्याम् अपि मधुभ्यः, किन्तु केवलम् एकवचने मधुनः इति अस्ति. अस्तु, तत्र इदानीं वयम् एतत् प्रथम अभ्यासः कर्तुं शक्नुमः इति मन्ये. अस्तु, तत्र कः उद्घाटनं करोति? अत्र सर्वे पूर्वं कृतवन्तः वा? अस्तु महोदय, रघुपतिमहोदय करोतु.
महोदय, अस्तु. पञ्चमी विभक्तिरूपाणि इति कथा. देशात्, देशाभ्यां, देशेभ्यः.
समीचीनं, समीचीनं महोदय. अस्तु, अग्रे सूर्यकुमारी भगिनी.
आं महोदय, एतेः, एतिभ्यां, एतिभ्यः.
हा, कवेः, कविभ्यां, कविभ्यः,
सोरि,
समीचीनं भगिनि, समीचीनं भगिनि, यतिभ्यः, समीचीनम्. अस्तु, अग्रे बनचित्रि महोदय.
यज्ञात्, यज्ञाभ्यां,
बहुवचने किम् अस्ति?
यज्ञेभ्यः महोदय.
हा, यज्ञेभ्यः, समीचीनं महोदय, समीचीनं. हा, अस्तु,
यज्ञः.
हा, गीताञ्जलि भगिनी अग्रे.
मृत्योः, गुरुवत मृत्योः, मृत्युभ्यां, मृत्युभ्यः.
हा, मृत्युभ्यः, समीचीनं भगिनि. हा, अस्तु, नरेश महोदय अग्रे.
महोदय, मुनिभ्यां, मुनेः, मुनिभ्यां, मुनिभ्यः.
मुनिभ्यः, समीचीनं. हा, अस्तु, अग्रे रघुपतिमहोदय.
अतिथिः, अतिथिः इति पुल्लिङ्गशब्दस्य, अस्तु, अतिथिः कारान्त. अतिथेः, अतिथिभ्याम्, अतिथिभ्यः.
अहम् अतिथेः पुस्तकं स्वीकरोमि इति. हा, अस्तु, हा, भानुचितनी महोदय अग्रे.
विद्यालयात्, विद्यालयाभ्यां, विद्यालयेभ्यः.
हा, विद्यालयात्, विद्यालयाभ्यां, विद्यालयेभ्यः, समीचीनं महोदय. अस्तु, हा, हा, अस्तु, अग्रे नरेश महोदय.
महोदय, वस्तुनः, वस्तुनः, वस्तुभ्यां, वस्तुभ्यः.
हा, अस्तु, समीचीनं. हा, अस्तु, सूर्यकुमारी भगिनी.
वस्तुनः मधुवत्,
वस्तुनः, हा, तदपि न
वस्तूनि. हा, वस्तुः, वस्तुः, वस्तूनि.
हा, 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 एतत् मधुशब्दवत् एव अस्ति, सत्यं, सत्यं, दृष्टवन्तः पूर्वं. हा, वस्तुनः, हा, वस्तुनः अपि षष्टिः अपि भवति इति मन्ये. हा, हा, सूर्यकुमारी भगिनी.
स्थालिकायाः, स्थालिकाभ्यां, स्थालिकाभ्यः.
हा, स्थालिकाभ्यः, समीचीनं. हा, अस्तु, अग्रे गीताञ्जलि भगिनी.
नेत्रभ्यः, भ्रात्र इति नेतुः, नेतृभ्यां, नेतृभ्यः.
समीचीनं भगिनि, हा, समीचीनम्. अस्तु, रघुपतिमहोदय अग्रे.
वीथी इति अस्ति. अस्तु, वीथी वीथ्याः इति भवति वा? त्रिलिङ्ग अस्ति, ईकारं त्रिलिङ्ग. अस्तु, वीथ्याः, वीथीभ्यां, वीथीभ्यः
इति मन्ये महोदय. समीचीनं. हा अस्तु, अग्रे बालचित्रं महोदय नास्ति. अस्तु, सूर्यकुमारी भगिनी.
मातुः मातृभ्यां मातृभ्यः.
हा, मातृभ्यः, समीचीनं. हा अस्तु, अग्रे नरेश महोदय.
देव्याः, दैव्याः, प्रथमविभक्ति दैवी, दैव्याः, दैवीभ्यां, दैवीभ्यः.
हा, दैवीभ्यः, समीचीनं महोदय. अस्तु, गीताञ्जलि भगिनी अग्रे. सूक्तेः,
सूक्तेः
प्रथमविभक्तिरूपं किम् अस्ति?
सूक्ति,
सूक्तिः,
सूक्तेः सूक्तिभ्यां, सूक्तिभ्यः,
सूक्तिभ्यः. समीचीनं भगिनि. हा अस्तु, अग्रे रघुपति महोदय.
बीजाभ्याम्. अस्तु, बीजः. अस्तु, बीजः, बीजात् बीजाभ्यां बीजेभ्यः इति पुल्लिङ्गः अस्ति वा? कारणं
बीजः इति. हा, सत्यम् इति मन्ये महोदय, बीजः इति मन्ये. हा अस्तु, अग्रे सूर्यकुमार भगिनि.
बुद्धेः, बुद्धेः बुद्धिभ्यां बुद्धिभ्यः.
बुद्धिः, हा, बुद्धिभ्यः, हा, कविभ्यः, बुद्धिभ्यः. समीचीनं, समीचीनं भगिनि. तत्र बुद्धिः प्रायशः मतिशब्दवत् इति मन्ये. बुद्धिः इति प्रायः स्त्रीलिङ्गपदमस्ति इति मन्ये.
नपुंसकलिङ्गं
न, न, बुद्धिः वा?
बुद्धि,
बुद्धिः नपुंसकलिङ्गपदं वा?
स्त्रीलिङ्ग,
स्त्रीलिङ्ग इति मन्ये भगिनि. अस्तु, मतिशब्दवत् अस्ति भगिनि. मतिः इति ह्रस्व इकारः.
बुद्धये इति भवति, मतये भवति.
हा, तत्र मतिः, मत्याः अथवा मतेः इति, तत्र
मतेः.
मतिशब्दस्य रूपद्वयम् अस्ति षष्ठ्या पञ्चमीभक्तौ. हा, अत्र तत्र बुद्धेः इति किं भगिनि? मत्याः वा? हा, हा, इति मन्ये. स्त्रीलिङ्गपदम् अस्ति मतिशब्दवत्, अतः बुद्ध्याः अपि, हा, बुद्ध्याः अपि वक्तुं शक्नुमः इति मन्ये. सत्यं भगिनि. हा, अस्तु, अग्रे भानुचतनि महोदय, अग्रे.
हरि ओं महोदय.
हा, नमस्कारः महोदय. तत्र अन्तिमबिन्दु प्रथमव्यासे राज्यात् इति.
राज्यात् महोदय, मह्यं तु तदेव आगच्छति. राज्यात्, राज्याभ्यां, राज्येभ्यः.
हा, राज्यं, राज्यम् इति तत्र स्यन्दनम् इति, स्यन्दनात्, स्यन्दनाभ्यां, राज्याभ्यां, स्यन्दनेभ्यः, राज्येभ्यः. तदेव भवान्
उक्तवन्तः. राजयोगः अस्ति अतः.
हा अस्तु, अन्तिमं तत्र अग्रिमं. हा,
अकारान्त एव आगच्छति.
न, 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 अग्रिममपि करोतु महोदय तत्र.
इदानीं विकारान्त.
संस्कृतिः, संस्कृतेः, संस्कृतिभ्यां, संस्कृतेभ्यः.
संस्कृतेभ्यः न,
संस्कृतिभ्यः.
हा, संस्कृतिभ्यः, हा, इति अस्ति. अस्तु, समीचीनं. हा अस्तु, तत्र अग्रे
अस्ति.
संस्कृतिः, संस्कृतिः इति ह्रस्व इकारः एव अस्ति.
पुल्लिङ्गमहोदय.
संस्कृतिः प्रायशः पुल्लिङ्ग वा स्त्रीलिङ्ग वा?
संस्कृति
स्त्रीलिङ्ग अस्ति महोदय
संस्कृतिः
स्त्रीलिङ्ग अस्ति
बुद्धिः बुद्धिः तिथिः हा बहुत्र ह्रस्व इकारः स्त्रीलिङ्गे एव अस्ति संस्कृत्याः इति
संस्कृत्याः
इति रूपं भवति सत्यं हा अस्तु अग्रे कः नरेश् महोदय अग्रिमं कर आरम्भं करोति वा
महाभारतयुद्धार्थं कस्मात् राज्यात् कः आगतवान् इति जानीत यथोदाहरणं वाक्यानि च वदत उदाहरणं विराटराजः मत्स्यदेशः विराटराजः मत्स्यदेशात् आगतवान् सात्यकिः द्वारका सात्यकिः द्वारकायाः आगतवान्
समीचीनं महोदय गीतांजलि भगिनी अग्रे
भगदत्तः
प्राग्ज्योतिषमिति
किमपि देशम्
प्रदेशमस्ति
अस्तु भगदत्तः प्राग्ज्योतिषात् आगतवान्
समीचीनं भगिनि अस्तु रघुपतिमोदि अग्रे
अस्तु द्रुपदः पाञ्चालदेशः अस्तु अकारान्तपुल्लिङ्ग अस्ति द्रुपदः पाञ्चालदेशात् आगतवान्
पाञ्चालदेशात् आगतवान् समीचीनं सूर्यकुमारी भगिनि
कर्णः अङ्गदेशात् आगतवान्
अतः वाक्यं
कर्णः अङ्गदेशात् आगतवान्
अङ्गदेशात् आगतवान् समीचीनं भगिनि अस्तु भानुचितनि महोदय अग्रे
बृहद्रथः कोशलात् आगतवान्
कोशलात् आगतवान् समीचीनं महोदय अस्तु नरेश महोदय
श्रुतयुद्धः कलिङ्गात् आगतवान्
अस्तु गीताञ्जलि भगिनी
जयसेनः मगधात् आगतवान्
अस्तु तत्र मगधात् इति अस्ति तत्र तत्र द्विवचने बहुवचने किं भवति अकारान्तः अस्ति चेत् वृक्षात् वृक्षाभ्यां वृक्षेभ्यः एकारः अस्ति मगधेभ्यः समीचीनं भगिनि अस्तु रघुपतिमहोदय अग्रिमम्
शल्यः मद्रदेशः शल्यः मद्रदेशात् आगतवान् अकारान्त अकारान्त
एकवचने इदानीं द्विवचने बहुवचने
शल्यः मद्रदेशं
मद्रदेशः मद्रदेशात्
मद्रदेशात् मद्रदेशाभ्यां मद्रदेशेभ्यः
इति अस्ति समीचीनं महोदय सूर्यकुमारी भगिनी अग्रे
सुदक्षिणः काम्बोजदेशः सुदक्षिणः काम्बोजदेशात् आगतवान् काम्बोजदेशेभ्यां
काम्बोजदेशेभ्यः इति समीचीनं भगिनि अस्तु भानुचितनि महोदय अग्रिम
नीलः माहिष्मत्या आगतवान्
इदानीं द्विवचने बहुवचने किं भवति माहिष्मत्याः इति एकवचने अस्ति द्विवचने किं भवति
माहिष्मतिभ्यः
माहिष्मतीभ्यः समीचीनं महोदय अस्तु नरेश महोदय अग्रे
भीष्मः हास्तिनपुरं भीष्मः हास्तिनपुरात् आगतवान् हास्तिनपुरात् हास्तिनपुराभ्यां हास्तिनपुरेभ्यः
हा तत्रापि अकारान्त अस्ति नपुंसकलिङ्गे किन्तु एभ्यः एव भवति समीचीनं महोदय
हास्तिनपुर एव
यदस्ति हा सत्यं महोदय
हास्तिनपुर एव
हा सत्यं सत्यं किन्तु यदस्ति
कङ्कणदोष इति
तत्र सर्वत्र तदेव अस्ति खलु हस्तिनपुर इति इति दत्तमस्ति हा सत्यं गीताञ्जलि भगिनी अग्रे
भ्रष्टकेतुः चेदि देशात् आगतवान् चेदि देशात् चेदि देशाभ्यां चेदि देशेभ्यः
हा इति भवति समीचीनं भगिनि हा रघुपति महोदय अग्रे
हा नील सारी विन्दः अवन्ति इति ईकारान्त स्त्रीलिङ्ग अस्ति अतः विन्दः अवन्ति अवन्त्याः आगतवान् अस्तु अवन्तीभ्याम् अवन्तीभ्यः
अवन्तीभ्यः समीचीनं महोदय हा सूर्यकुमारी भगिनी अग्रे
पाण्डवाः इन्द्रप्रस्थात् आगतवान्
आगतवन्तः समीचीनं
इन्द्रप्रस्थात् इन्द्रप्रस्थाभ्याम् इन्द्रप्रस्थेभ्यः
हा इन्द्रप्रस्थेभ्यः समीचीनं हा बाणचित्रि महोदय अग्रे
शकुनिः गान्धारात् आगतवान्
हा गान्धारात् आगतवान् समीचीनं
गान्धाराभ्यां गान्धारेभ्यः
समीचीनं हा अस्तु नरेश महोदय
बृहत् क्षत्रः केकयम् बृहत् क्षत्रः केकयात् आगतवान् केकयात् केकयाभ्यां केकेभ्यः
इति समीचीनं गीताञ्जलि भगिनि
जयद्रथः सिन्धुदेशात् आगतवान् सिन्धुदेशात् सिन्धुदेशाभ्यां सिन्धुदेशेभ्यः
इति समीचीनम् अस्तु हा इदानीं तत्र एव अन्यः अभ्यासः कर्तुं शक्नुमः तत्र अग्रे रघुपतिमहोदय सात्यकिः इति हा तस्य पञ्चमीभक्तिरूपं केवलं
सात्यकेः इकारान्त पुल्लिङ्ग अस्ति सात्यकेः सात्यकेः सात्यकिभ्यां
अस्तु अग्रे सूर्यकुमारी भगिनी भगदत्तः तस्य पञ्चमी विभक्तिरूपं भगदत्तः
भगदत्तात् भगदत्ताभ्यां
भगदत्तेभ्यः समीचीनं भगिनि अस्तु बालचित्रि महोदय द्रुपदः
द्रुपदः पाञ्चालः
केवलं न केवलं द्रुपदः इति पदस्य पञ्चमीभक्तिरूपं
द्रुपदः द्रुपदात् द्रुपदाभ्यां द्रुपदेभ्यः
हा इति अस्ति महोदय अस्तु नरेश महोदय कर्णः
कर्णः कर्णात् कर्णाभ्यां कर्णेभ्यः
हा गीताञ्जलि भगिनि
बृहद्रथः बृहद्रथात् बृहद्रथाभ्यां बृहद्रथेभ्यः
हा अत्र अभ्यासः केवलं पञ्चविभक्ति केवलं तस्य न तस्याः न अपि क्लिष्टान् पदान् अपि उच्चारणस्य अभ्यासः उच्चारणाभ्यासः अस्तु
किन्तु महोदय
रघुपति महोदय अग्रे
श्रुतायुधः श्रुतायुधात् श्रुतायुधाभ्यां श्रुतायुधेभ्यः युधेभ्यः.
सूर्यकुमारी भगिनी.
जयत्सेनः जयत्सेनात् जयत्सेनाभ्यां जयत्सेनेभ्यः.
हा जयत्सेनेभ्यः. हा समीचीनं. भानुचेतनी महोदय अग्रे. शल्यः हा अस्तु समीचीनं. हा नरेश महोदय. सुदक्षिणः
सुदक्षिणः सुदक्षिणात् सुदक्षिणाभ्यां सुदक्षिणेभ्यः.
हा समीचीनं. गीताञ्जलि भगिनी. नीलः
नीलः नीलात् नीलाभ्यां नीलेभ्यः.
हा रघुपति महोदय. भीष्मः
भीष्मः भीष्मात् भीष्माभ्यां भीष्मेभ्यः.
हा अस्तु अग्रे भानुचेतनी महोदय. दृष्टकेतुः
दृष्टकेतुभ्यः
इति समीचीनं. हा सूर्यकुमारी भगिनी. विन्दः इति
विन्दः विन्दात् विन्दाभ्यां विन्देभ्यः.
अस्तु पाण्डवाः इति नरेश महोदय. पाण्डवः
पाण्डवाः बहुवचनम् अस्ति. पाण्डवेभ्यां भ्यः परन्तु पाण्डवात् पाण्डवाभ्यां पाण्डवेभ्यः
इति समीचीनं महोदय. हा समीचीनं. गीताञ्जलि भगिनी अग्रे.
शकुनिः शकुनेः शकुनिभ्यां शकुनिभ्यः.
हा शकुनिभ्यः इति समीचीनम्. अस्तु रघुपति महोदय.
बृहत्क्षत्रः बृहच्चक्रः अपि अस्तु. बृहक्षत्रः बृहक्षत्रात् बृहक्षत्राभ्यां बृहक्षत्रेभ्यः.
हा इति समीचीनम्. अस्तु सूर्यकुमारी भगिनी अग्रे.
जयत्रतः जयद्रतः जयद्रदात् जयद्रदाभ्यां जयद्रदेभ्यः.
हा तत्र एकवचने एकवारं वदतु तत् पुनः.
जयद्रतात्.
हा तत्र प्रथमतकारः द्वितीयतकारः भेदः प्रदर्शनीयमस्ति. हा जयद्रथात् इति. हा तकारः प्रथमं महाप्राणं द्वितीयम् अल्पप्राणम् इति. हा जयद्रथात् इति. हा अस्तु समीचीनं भगिनि. हा अस्तु. हा अस्तु इदानीं पञ्चमीविभक्तिरूपं तस्य परिचयः जातः. अग्रिमवर्गे तत्र तस्य प्रयोगः कुत्र कुत्र भवति इति तत्सर्वं पश्यामः. समयः अपि जातः. अस्तु अत्र विरमाम तर्हि. अस्तु प्रश्नः अस्ति वा पञ्चमीविभक्तिविषये? अस्तु अस्तु समीचीनं. बहु किमपि अतीतवन्तः अद्य. अस्तु अस्तु अग्रिमवर्गे मिलामः. सर्वेभ्यो नमस्कारः. धन्यवादः. अग्रिमवर्गे मिलामः. नमस्कारः नमस्कारः.